इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् यदा सर्वमपि विश्वं बहुविध संकटान् सम्मुखीकरोति तदा भारतं स्थिरतायाः संवेदनशीलतायाश्च प्रतीकत्वेन उद्भूतम्। राष्ट्रेण अद्य आरक्षक स्मारक दिवसः आचर्यते। रक्षामन्त्री राजनाथ सिंहः अवदत् यत् यानि क्षेत्राणि पूर्व रेड कॉरिडोर इति नाम्ना प्रसिद्धानि आसन् तानि अधुना विकास कॉरिडोर इत्यनेन रूपेण परिवर्तितानि सन्ति। निर्वाचन आयोगेन बिहार विधानसभायाः निर्वाचनावधौ मतदान पूर्वं मतदान दिवसे च प्रकाश्यमानानि विज्ञापनानि अधिकृत्य पूर्व प्रमाणनं प्राप्तुं सर्वाणि अपि राजनीतिदलानि निर्दिष्टानि। अपि च ताका इची साने इत्येषा जापानस्य प्रथमा महिला प्रधानमन्त्रित्वेन निर्वाचिता। प्रधानमन्त्री श्रीमोदी अवदत् यत् सः भारत जापान विशिष्ट सामरिक वैश्विक सहभागित्वं इतोपि सुदृढं कर्तुं तया सह कार्यं कर्तुं उत्सुकः अस्ति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् यदा सर्वमपि विश्वं बहुविध संकटान् सम्मुखीकरोति तदा भारतं स्थिरतायाः संवेदनशीलतायाश्च प्रतीकत्वेन उद्भूतम्। दीपावल्याः अवसरे देशस्य नागरिकान् प्रति लिखिते पत्रे श्रीमोदीवर्यः अवदत् यत् भारतं निकट भविष्ये विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भवितुं प्रवृत्तमस्ति। सः अवदत् यत् विकसितस्य आत्मनिर्भरस्य च भारतस्य अस्यां यात्रायां राष्ट्राय स्वकीयं कर्तव्यं निर्वोढुं प्रत्येकं नागरिकस्य प्राथमिकं दायित्वमस्ति। प्रधानमन्त्री पुनः अवदत् यत् ऑपरेशन सिन्दूर इति अभियानस्य प्रत्समये भारतं राष्ट्रधर्मं समर्थयत् अन्यायस्य प्रतीकारम् अकरोत्। सः अवदत् यत् भगवान् श्रीरामः जनान् धर्मं धारयितुं शिक्षयति, सहैव अन्यायं विरुध्य युद्धं कर्तुं साहसम् अपि प्रददाति। अद्य राष्ट्रेण आरक्षक स्मारक दिवसः आचर्यते। अस्मिन् दिने 1950-1990 लद्दाखस्य हाट स्प्रिंग्स इति अस्मिन् क्षेत्रे चीन सैनिकैः कृते भीषणे शस्त्राक्रमणे दशसंख्याकाः वीराः आरक्षकाः निज प्राणाहुतिं प्रायच्छन्। ततः परं प्रतिवर्षम् अक्टूबर मासस्य 21 दिनांकः आरक्षक स्मरण दिवस रूपेण आचर्यते। रक्षामन्त्री राजनाथ सिंहः अवदत् यत् राष्ट्रस्य बाह्यस्य आन्तरिकस्य च सुरक्षायाः सन्तुलनम् अधुना पूर्वकालात् अधिकं महत्वपूर्णमस्ति, यतः राष्ट्रं 47-2000 वर्षपर्यन्तं विकसित भारतस्य लक्ष्यं प्रति अग्रे गमिष्यति। नवदिल्ल्याम् आरक्षक स्मारक दिवसस्य कार्यक्रमे सम्बोधयन् श्रीसिंहः वर्यः अवदत् यत् सेनाः आरक्षकाश्च विभिन्नेषु मञ्चेषु कार्यं कुर्वन्ति, परञ्च राष्ट्ररक्षायै तेषां ध्येयः समानः एव अस्ति। सः सशस्त्रसेनाः आरक्षकसेनाश्च राष्ट्रियसुरक्षायाः आधारस्तम्भरूपेण अवर्णयत्। अग्रिमवर्षस्य मार्चमासपर्यन्तम् उग्रवादस्य समस्या समाप्ता भविष्यति इत्यपि सिंहवर्यः सुदृढविश्वासेन सह प्रोक्तवान्। सः अवदत् यत् अस्मिन् वर्षे अनेके प्रमुख नक्सलमतानुयायिनः उन्मूलिताः, सहैव वामपक्ष उग्रवादेन प्रभावितानां मण्डलानां संख्या च न्यूना सञ्जाता। श्रीसिंहवर्यः अवदत् यत् यानि क्षेत्राणि रेड कॉरिडोर इति नाम्ना प्रसिद्धानि आसन् तानि अधुना विकास कॉरिडोर इत्यनेन रूपेण परिवर्तितानि सन्ति।
जो क्षेत्र पहले नक्सलियों के आतंक से कांपते थे, आज वहां रोड्स, हॉस्पिटल, स्कूल और कॉलेज पहुंच चुके हैं। जो क्षेत्र कभी नक्सल हब हुआ करते थे, आज वो एजुकेशनल हब बन रहे हैं। आज वहां बच्चे मोबाइल चला रहे हैं, कंप्यूटर चला रहे हैं, बड़े सपने देख रहे हैं। भारत के जो क्षेत्र रेड कॉरिडोर के नाम से कुख्यात थे, वह अब ग्रोथ कॉरिडोर में बदल रहे हैं। सरकार जितने परिवर्तन कर पाई है उसमें बहुत बड़ा योगदान हमारे पुलिस बलों का और हमारे सुरक्षा बलों का है।
उपराष्ट्रपतिः सीपी राधाकृष्णन वर्यः अस्मिन् अवसरे आरक्षक कर्मचारिणाम् अनुकरणीय साहसस्य सर्वोच्च त्यागस्य च सम्मानं कुर्वन्तेभ्यः श्रद्धाञ्जलिम् अयच्छत्। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्र मोदी आरक्षक कर्मचारिणां साहसस्य प्रशंसां कुर्वन् कर्तव्य निर्वहणे तेषां सर्वोच्च बलिदानस्य अनुस्मरणम् अकरोत्। बिहार विधानसभा निर्वाचनस्य द्वितीय चरणस्य अन्तिम चरणस्य च नामांकन पत्राणां परीक्षणम् अद्य आरब्धम्। अभ्यर्थिनः गुरुवासर पर्यन्तं नामांकनं प्रत्यावर्तयितुं शक्नुवन्ति। विंशति जनपदेषु द्वाविंशति उत्तर एकशतं निर्वाचन क्षेत्रेभ्यः षड्विंशति शतात् अधिकानि नामांकन पत्राणि पञ्जीकारितानि। द्वितीय चरणस्य मतदानं नवम्बर मासस्य एकादश दिनांके भविष्यति। प्रथम चरणस्य मतदानं नवम्बर मासस्य षड् दिनांके भविष्यति। अस्मिन् विधानसभा निर्वाचने राजनैतिक दलैः आसनानां संख्यायाः प्रदापनाय प्रयत्ने अभिनेतृभ्यः लोकगायकेभ्यः संगीतकारेभ्यः उच्चाधिकारी अधिकानि अवसराणि दत्तानि। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ताकायिची साने इत्येषा ऐतिहासिकरूपेण जापानस्य संसत्सदस्यै प्रथमा महिला प्रधानमन्त्रित्वेन निर्वाचिता। लिबरल डेमोक्रेटिक दलस्य नेत्री ताकायिची दीर्घकालिक सहयोगिनः कोमिएटो इत्यस्मात् दलात् एलडीपी इत्यस्य विभाजनात् परं जापान इनोवेशन पार्टी इत्यनेन सह नूतनं संयुक्त सर्वकारस्य निर्माणं करिष्यति। चतुष्षष्टि वर्षीया ताकायिची अद्य सायंकाले सम्राज्ञा विहितस्य नियुक्त्यनन्तरम् औपचारिकरूपेण कार्यभारं ग्रहीष्यति। तदनन्तरं तस्याः प्रथमं वार्तासम्मेलनं भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अक्तूबर मासस्य षड्विंशति दिनांके आकाशवाणी इत्यत्र मन की बात इत्यस्मिन् कार्यक्रमे देश विदेशवासिभ्यः स्वविचारान् प्रस्तोष्यति। इदं मासिक रेडियो कार्यक्रमस्य सप्तविंशत्यधिक एकशततमः भागः भविष्यति। अद्य प्रधानमन्त्रिणा नरेन्द्र मोदिना इज़राइल देशस्य प्रधानमन्त्रिणः बेंजामिन नेतन्याहू वर्यस्य जन्मदिवसम् उपलक्ष्य तस्मै जन्मदिवसस्य शुभकामनाः प्रेषिताः। सहैव तेन प्रधानमन्त्रिणः नेतन्याहू वर्यस्य दीपावली शुभकामनाः प्रति धन्यवाद ज्ञापनम् अपि कृतम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना लोकप्रिय चलचित्र अभिनेतुः गोवर्धन असरानी इत्यस्य निधने शोकः प्रकटितः। एकस्मिन् सामाजिक सन्देशे श्रीमोदी अवदत् यत् एकः मनोरञ्जकः बहुमुख प्रतिभासम्पन्नः कलाकारः गोवर्धन असरानी वर्यः चिरकालपर्यन्तं प्रेक्षकाणां मनोरञ्जनम् अकरोत्। गतमासे द्वाविंशति दिनांके प्रधानमन्त्रिणा नरेन्द्र मोदिना घोषितः प्रारब्धः जीएसटी वस्तु सेवा कर बचत महोत्सवः समाजस्य सर्वेषां वर्गाणां जनानां लाभाय वर्तते। आगामिन्याः परम्परायाः वस्तु सेवा करस्य अन्तर्गतं प्रशासनेन वाहनक्षेत्रस्य कृते महत् कर शैथिल्यं घोषितम्। नूतन कर संरचनायाः अन्तर्गतम् 1800 सीसी इति परिमाणात् न्यून इंजन क्षमतायुक्तेषु ट्रैक्टर वाहनेषु 5% करः भविष्यति। 1800 सीसी इति परिमाणात् अधिक इंजन क्षमतायुक्तेषु ट्रैक्टर वाहनेषु 18% करः भविष्यति। अपि च ट्रैक्टर वाहन निर्माणे प्रयुक्तानां घटकानां यथा चक्रं गति नियन्त्रकम् इत्यादीनाम् उपरि अपि 5% करः भविष्यति। अन्ते पुनरेकवारं मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् यदा सर्वमपि विश्वं बहुविध संकटान् सम्मुखीकरोति तदा भारतं स्थिरतायाः संवेदनशीलतायाश्च प्रतीकत्वेन उद्भूतम्। निर्वाचनायोगेन बिहार विधानसभायाः निर्वाचनावधौ मतदान पूर्वं मतदान दिवसे च प्रकाश्यमानानि विज्ञापनानि अधिकृत्य पूर्वं प्रमाणनं प्राप्तुं सर्वाणि अपि राजनीतिदलानि निर्दिष्टानि। अपि च ताकायिची साने इत्येषा जापानस्य प्रथमं महिला प्रधानमन्त्रित्वेन निर्वाचिता इति वार्ताः।